अथ 9वां अध्याय श्री भगवान उवाच वेदान्तो ते गोह्यतमम् वक्ष्याम्यनसूयवे ज्ञानं विज्ञानसहितं यज्ञात्वा मोक्षसे शुभात् राजविद्या राजगोह्यं पवित्रमिदमोत्तमम् प्रत्यक्षावगमं धर्म्यम् सुखं कर्तुमव्ययम् अश्रद्धधानः पुरुषः धर्मस्यास्य परन्तप अप्राप्य मामे वर्तन्ते मृत्यु संसारवात्मनि मया ततमिदं सर्वं जगदव्यक्तमूर्तिना मस्तानि सर्वभूतानि न चाहं तेष्वस्थित न च मस्तानि भूतानि पश्य मे योगमैश्वरम् भूतभिन्न च भूतस्थो ममात्मा भूतभावना यथाकाशस्थितो नित्यं वायुः सर्वत्र गोमहान् तथा सर्वाणि भूतानि मत्सानीत्युपधारय सर्वभूतानि कौन्तेय प्रकृते यान्ति मामिकाम् कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् प्रकृतिं स्मामवष्टभ्य विसृजामि पुनः पुनः भूतग्राममिमं कृष्णमवशं प्रकृतेर्वशात् न च मां तानि कर्माणि निबध्नन्ति धनञ्जय उदासीनवदासीनमसक्तं तेषु कर्मसु मयाध्यक्षेण प्रकृति श्रूयते सचराचरम् हेतुनानेन कौन्तेय जगद्वे परिवर्तते अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् परं भावमजानन्तो मम भूतमहेश्वरम् मोघाशामोघकर्माणो मोघज्ञानाविचेतस राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिता महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिता भजन्त्यनन्यमनसो ज्ञात्वाभूतादिमव्ययम् सततं कीर्तयन्तो मां यतन्तस्तदृढव्रता नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते एकत्वेन पृथक्तेन बहुधा विश्वतो मुखम् अहं क्रतुरहं यज्ञस्पृधाहमहमौषधम् मन्त्रोऽहमहमेवाद्यमहमग्निरहमुतम् कृताहमस्य जगतो माता धाता पितामह वेद्यं पवित्रमङ्कार ऋक्साम यजुरेव च गतिर्भर्ता प्रभु साक्षी निवासः शरणं सुरे प्रभवः प्रलयस्थानं निधानं बीजमव्ययम् तपाम्यहमहं वसुं निगृह्णाम्युत्सृजामि च अमृतं चैव मृत्योश्च सरसत्याहमर्जुन चैविद्या मां सोमपापूत पाप यजीरिष्वा स्वर्गतिं प्रार्थयन्ते पुण्यमासाद्य सुरेन्द्रलोक मस्तन्ति दिव्यान्दिदेव ते तं भुक्त्वा स्वर्गलोकं विशालम् क्षीणे कोल्ये मर्त्यलोकौ सन्ति एवं त्रयी धर्ममनुप्रपन्ना गतागतं कामकामा लभन्ते अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् येऽप्यन्यदेवता भक्त्वा यजन्ते श्रद्धयान्विता तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च न तु मामभिजानन्ति तत्नातश्चवन्ति ते यान्ति देवव्रता देवान् पितृन्यान्ति पितृव्रता भूतानि यान्ति भूते च यान्ति मद्यादिनोऽपि मां पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति तदहं भक्त्युपहृतमस्नामि प्रयतात्मनः यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् शुभाशुभफलैरेवं मोक्ष्यसि कर्मबन्धनैः सन्न्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि तमोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रिय ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् अपि से सुदुराचरो भजते मामनन्यवा साधुरेव समन्तव्य सम्यग्वसितो हि स क्षिप्रम् भवति धर्मात्मा शाश्वतशान्तिं गच्छति। कौन्तेय प्रतिजानी नमेव तः प्रणश्यति। मां विपार्थ व्यपाश्रेत्य येऽपि स्युः पापयोनय। श्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गते। किं पुनर्ब्राह्मणाः पुण्या भक्तराजर्षदस्तथा अनेत्यमसुखं लोक इमं प्राप्य भजस्व मां। मन्मना भव मद्भक्तो मत्याजे मां नमस्कुरु। मामैवैष्यसि योक्तैव मात्मानं मत्परायणः। ॐ तत्सत् श्रीमद्भगवद्गीतासुविद्यायां योगशास्त्रे श्रीकृष्णानुवादे राजविद्याराजगुरुनां नमः।